सर्वेषां स्वागतम्.
नमस्ते भगिनि.
नमस्ते, नमो नमः.
नमस्ते भगिनि.
नमस्ते भगिनि.
नमस्ते. अस्तु, एकनिमिषं, के आगतः तत् पश्यामि. Now today we are going to start one very interesting topic. Before I start the topic, I just want to show you one Subhashitam. And then after reading Subhashitam, we are going to guess the topic. Okay? So the person who will be reading the Subhashitam, saha eva anumanam karoti. Kaha sajjah, vaka sajjah. If you are reading, you have to guess the topic. Who is ready? Yes. ध्वनि श्रूयते वा न वा?
श्रूयते श्रूयते
श्रूयते. वदतु, हु इज रेडी? कः सज्जः वा का सज्जा?
प्रयत्नं कुर्मः बेनि.
प्रयत्नं करोतु. वन् ऐ शेर् द स्क्रीन् वन् मिनिट्. पठतु. दृश्यते?
न दृश्यते भगिनि, मम दूरवाणी. शनशः गणशश्चैव विद्यामर्थं च साधयेत्. शनत्यागे कुतो विद्या, कनत्यागे कुतो धनम्.
सम्यक्. किं दत्तमस्ति सुभाषितस्य अर्थ?
टैम् टैम् अबौट् टैम्
करेक्ट्. सो दिस् इस् रिगार्डिङ्ग् समयः. क्षणशः एव्रि मोमेण्ट्, कणशः ग्रेन् आर् यु केन् से पार्टिकल् आर् स्माल् स्माल् यूनिट्स्. कण इत्युक्ते वेरि स्माल् यूनिट्. क्षणशः कणशः च एव विद्याम् अर्थं च साधयेत्. क्षणत्यागे कुतो विद्या, कणत्यागे कुतो धनम्. सो इन् शार्ट्, वाट् डु वी हौ टु डु? युटिलैजेशन् आफ् एव्री सिङ्गल् मोमेण्ट्, एव्रि सिङ्गल् मोमेण्ट् आफ् द टैम् वैल् acquiring vidya, knowledge, and while acquiring wealth, even the smallest unit of money should be taken care of, should not be wasted. Why? Because sacrificing valuable time and small sums of money, shana tyage kuto vidya, kana tyage kuto dhanam, tatra dattam asi, no chance of becoming learned person. कुतो विद्या, कथं भवति विद्या, कथं प्राप्नोति विद्या? क्षणस्य त्यागे, कणस्य त्यागे कथं धनं प्राप्नुमः? सो इट् इस् वेरि रेर् आर् देर् आर् यु केन् से देर् आर् नो चान्सेस् आफ़् बिकमिङ्ग् वेल्दी आर् देर् आर् नो चान्सेस् आफ़् बिकमिङ्ग् लर्नेड् पर्सन्. क्षणशः कणशः च एव विद्याम् अर्थञ्च साधयेत्. क्षणत्यागे कुतो विद्या, कणत्यागे कुतो धनम्. सो वित् दिस् ब्यूटिफुल् सुभाषित् वी आर् गोयिङ्ग् टु स्टार्ट् वित् समयबोधनम्. ओके, सो सर्वे जनाः सम्भाषणस्य कृते सज्जाः, सर्वे जनाः सम्भाषणं कर्तुं शक्नुवन्ति. सम्भाषणस्य कृते लकाराः, शब्दाः, अनन्तरं शब्दानां विविधरूपाणि, तत्सर्वं तस्य ज्ञानं तु आवश्यकमस्ति. इदानीं समयदर्शनं, ghati darshanam. So today we are going to learn in today's session ghati darshanam va ghatya darshanam katham karaniyam, vibhanna kaleshu ghatim drushtva katham samaya bodham karaniyam. Okay, so that is the today's topic, samayah, right? Samaya bodhanam is today's topic. Samaya bodhanam is samaya se jnanam. Okay, so now let us start. Now before we understand the clock, first of all we must learn numbers from 1 to 50. So now numbers from 1 to 50, we have already learned numbers from 1 to 10. Kopi smarati va numbers 1 to 10. Yes?
Ambeli.
Smarati va numbers 1 to 10.
Ambagini.
Ambagini.
किञ्चित् उच्चैः वदतु. एकं वदतु.
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश.
ओके, नौ टुडे वी विल् लर्न् फ्रोम् 11 आन्वर्ड्स्. इट्स् वेरि सिम्पल् इट् इस् दृश्यते दृश्यते न
आं भगिनि आं भगिनि दृश्यते.
इदानीं राधा भगिनी
आम्
एकादशतः विंशतिः पर्यन्तं पठति वा.
एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशति.
सो हौ डु वि अण्डर्स्टाण्ड् फ्रोम् 11 टु 19 द दश वर्ड् रिमेन्स् द सेम्. 11 विल् बि एकादश द्वादश त्रयोदश एण्ड् सो आन् बट् 20 बिकम्स् विंशति. अगेन् वाट् विल् हेपन् फ्रोम् 21 टु 29 विंशति इस् कामन् एण्ड् देन् वाट् डु वि हव् टु एड् एक द्वा त्रयो चतुर् पञ्च षड्विंशति. तत्र सन्धिनियमाः सन्ति षट् विंशति तकारस्य डकार भूत्वा षड्विंशति सप्तविंशतिः अष्टविंशतिः नवविंशतिः एण्ड् त्रिंशत्. सो दिस् इस् हौ इट् हेपन्स्. अगेन् वीणा भगिनी पठति वा 21 एकविंशतितः त्रिंशत् पर्यन्तं पठति वा वीणा
एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिशत्
त्रिंशत् इति अस्ति त्रिंशत् त्रिंशत् सो नौ हियर् वन् पायिण्ट् वी हव् टु रिमेम्बर् फोर् अष्ट इट् बिकम्स् अष्टादश अष्टाविंशति अग्रिमे अपि अष्टात्रिंशत् अष्टचत्वारिंशत्. सो देर् आर् डिफ्रेण्ट् सन्धिनियम् सो फार् देट् वी डोण्ट् हव् टु स्टडि रैट् नौ जस्ट् रिमेम्बर् तत्र अष्टा भवति न अष्टविंशति इति कथं वयम् अग्रिमे पठिष्यामः. ओके, इदानीं भारतमहोदय एकत्रिंशतितः एकत्रिंशत्तः अग्रिमे पठति वा.
एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत्.
सम्यक्. श्रीवत्स महोदय
एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट् चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत्.
बहु सम्यक्. सो दीस् आर् द बेसिक् नम्बर्स् 1 to 50 वी हव् टु रिमेम्बर्. इदानीं वयं किं कुर्मः, लेट् अस् स्टार्ट् टु फैण्ड् औट् द सिमिलारिटि. लेट् अस् गो वर्टिकलि. एकं प्लस् टेन् एकादश प्लस् टेन् एकविंशति एकत्रिंशत् एकचत्वारिंशत्. ओके, अनन्तरं सुजयन्ती भगिनी आरम्भं करोति वा वर्टिकलि एकं द्वे विषये कृपया पठतु.
ओके, एकम् एकं लैक् ओके एकं द्वे तावदेव किल बेनि.
न न कथं, सी देर् इस् अ सिमिलारिटि, वी आर् एडिङ्ग् टेन् टेन् इन् ईच् रैट्. सो एकम् एकादश एकविंश, जस्ट् टु अण्डर्स्टाण्ड्.
द्वे द्वादश द्वाविंशति विंशतिः द्वात्रिंशत् द्विचत्वारिंशत्.
सो वाट् इस् टेक् अवे मेसेज् ओवर् हियर्, तत्र द्वा 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 भवति दश कृते, विंशतिः कृते, त्रिंशत् कृते, परन्तु चत्वारिंशत् भवेच्छत् तत्र द्वि आगच्छति. ओके, सो इदानीं त्रीणि चत्वारि अपि पठन्तु हारिजोण्टल् वे.
त्रीणि त्रयोदशः त्रयोविंशतिः त्रयत्रिंशत् त्रिचत्वारिंशत्.
तत्र त्रयस्त्रिंशत् इति अस्ति, त्रयस्त्रिंशत्. किमर्थं तत्र त्रयस्त्रिंशत् अस्ति भगिनि? त्रयः त्रिंशत् विसर्गस्य सकार, त्रयस्त्रिंशत्
विसर्गस्य योजनेन सकारं भवति.
सत्यम्. अग्रिमे चत्वारि
चत्वारि चतुर्दश चतुर्विंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंशत्
चतुश्चत्वारिंशत् एवं. धन्यवादः. अग्रिमे पठति अम्बिकापतिमहोदय, पठति वा अम्बिकापतिमहोदय? पञ्च कृते षट् कृते सप्त कृते पठति वा?
पञ्च पञ्चदश पञ्चविंशतिः पञ्चत्रिंशत् पञ्च त्वात्रिंशत्
पञ्चचत्वारिंशत्
पञ्चचत्वारिंशत्
चत्वारिंशत्. अग्रिमे
षड् षोडश षड् विंशतिः
षड् किं भवति? षट् विंशति तकारस्य डकार, षड् विंशति इति भवति
डकार, षड् विंशतिः षट् त्रिंशत् तत् षट् चत्वारिंशत्.
सम्यक्. सो तत्र षोडश किञ्चित् भिन्नप्रकारेण, अनन्तरं षड्विंशतिः षट् त्रिंशत् षट् चत्वारिंशत् क्रमेण आगच्छति. अग्रिमे भारतमहोदय सप्ततः नवपर्यन्तं पठति वा?
सप्त सप्तदश सप्तविंशतिः सप्तत्रिंशत् सप्तचत्वारिंशत्.
अग्रे अष्ट
अष्ट अष्टादश अष्टाविंशतिः अष्टात्रिंशत् अष्टचत्वारिंशत्.
सम्यक्. नव
अग्रे नव नवदश नवविंशतिः नवत्रिंशत् नवचत्वारिंशत्.
अग्रे पठतु, अग्रिमे अपि पठतु. दश पठति वा? दश विंशतिः
दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत्
सो वन्स् वी हेव् अण्डर्स्टुड् दिस् विंशतिः वाट् कम्स् आफ्टर् विंशतिः एकविंशति द्वाविंशति त्रयो चतुर् अण्ड् सो आन् टिल् नवविंशतिः अण्ड् देन् वी हेव् द नेक्स्ट् नम्बर् त्रिंशत् त्रिंशत् आफ्टर् त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुर् अण्ड् सो आन् अप् टु नवत्रिंशत् अण्ड् देन् चत्वारिंशत् ओके अण्ड् देन् सिमिलर्लि एक द्वि त्रि नवचत्वारिंशत् अण्ड् द लास्ट् इस् पञ्चाशत् सो जस्ट् रीड् इट् फोर् टु त्री टैम्स् यु विल् बि एबल् टु अण्डर्स्टाण्ड् द नम्बर्स् इदानीं समयस्य विषये किञ्चित् पठनं कुर्मः नूतनतया तत्र एकनिमिषं के के आगताः नूतनतया पश्यामि अनिता भगिनी अस्ति अनिता भगिनी नमो नमः नमस्कारः
नमो नमः भगिनी सॉरी आई वाज लेट
इट्स ओके नो प्रॉब्लम ओके सो द नेक्स्ट पार्ट इज लेट अस गो फॉर फर्स्ट ऑफ ऑल आई विल शो यू द So this is the simple watch we are using nowadays. Drishyate?
Drishyate.
Drishyate. Okay. So tatra kim asti? How many arms we can see here?
Traya.
Right. So the one is, name them.
Oh, I can't. Our hand. We have the hour hand, the minutes hand, and the seconds yeah. hand.
Correct, correct. Very fine. So, here what happens in Sanskrit Bhashaya, Vayam, Pashantu. I am making just one sentence. Ekasmin dine, chatur vimushatihi ho raha. Puna ekavaram, ha? See the number which I am uttering. Chatur vimushati. Ekasmin dine. Chatur vimushati. Ho raha. Kim nama ho raha? Idanim vadu. Correct. Okay. So that is the ava arm. Huh? Chatur vimushati ho raha. Now, the next one. Ek ho rayam. एकहोरायां षष्ठीः षष्ठीः फलानि सिक्स्टि षष्ठीः फलानि किं नाम फलानि
फलानि नाम मिनिट्स्
मिनिट्स् फलं फलानि ओके सो देर् आर् सिक्स्टि मिनिट्स् इन् वन् अवर् अण्ड् देन् एकफले एकस्मिन् फले षष्ठीः निमेषाः निमेषाः सो वाट् इस् देट्
निमेषाः सेकेण्ड्स्
सेकेण्ड्स् निमेषाः फलानि होराः होराः फलानि निमेषाः सो दीस् थ्री वर्ड्स् वी हव् टु रिमेम्बर् एकस्मिन् दिने चतुर्विंशतिहोराः एकस्मिन् होरा एकहोरायाम् इति एकहोरायां षष्ठिः
फलानि
एकस्मिन् फले षष्ठिः निमेषाः ओके सो दीस् थ्री वर्ड्स् वी हव् टु अण्डर्स्टाण्ड् अनन्तरम् इतोपि प्रातः मध्याह्नः सायं रात्रिः पुनः एकवारं प्रातः मध्याह्नः सायं रात्रिः वाट् आर् दीस्
मार्निङ्ग्
मार्निङ्ग् मार्निङ्ग् आफ्टर्नून् ईव्निङ्ग्
इविनिङ्ग् ओके सो दीस् थिङ्ग्स् वैल् इण्डिकेटिङ्ग् द टैम् वी केन् वेरि वेल् मेक् यूस् आफ् दीस् प्रातः मध्याह्नः सायम् एण्ड् रात्रि सो इन् दिस् वाच् वाट् डु वि फैण्ड् देर् आर् टु सर्कल्स् वन् रिप्रेसेण्टिङ्ग् अवर् एण्ड् अदर् रिप्रेसेण्टिङ्ग् मिनिट्स् नौ लेट् अस् टु अण्डर्स्टाण्ड् इन् संस्कृत भाषायां कथं भवति इति फस्ट् आफ् आल् लेट् अस् स्टार्ट् टु अण्डर्स्टाण्ड् सिम्पल् रिमेम्बर् अवर् चैल्ड्हुड् whenever we were learning in our school days prathamtah arambatah vayam kim pathama 1 o'clock 2 o'clock 3 o'clock 4 o'clock 5 o'clock and so on similarly here also if I am saying 1 o'clock it will be ekavadanam okay so that part let us understand first see here it is for you who will read now नूतनतया कोऽपि आगता वा वाचयन्ति भगिनी आरम्भं करोतु
एकवादनं त्रिवादनं पञ्चवादनं सप्तवादनम्
एक नव द्विवादनं त्रि एवम्
ओके 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 एकवादनं द्विवादनं त्रिवादनं चतुर्वादनं पञ्चवादनं षड्वादनं सप्तवादनम् अष्टवादनं नववादनं दशवादनम् एकादशवादनं द्वादशवादनम्
ओके सो नौ वी हेव् अण्डर्स्टुड् नम्बर्स् वेरि वेल् नम्बर्स् फ्रोम् एक टु द्वादश सो जस्ट् वी हेव् टु एड् वाट् वादनं देर् इस् नो सन्धि ओवर् देर् पिकप् एक् एण्ड् देन् एड् वादनम् एकवादनम् अनन्तरं द्विवादनम् and trivadanam chaturvadanam panchvadanam shadvadanam saptavadanam ashtavadanam navavadanam dashavadanam these are the simple things okay now bhagini vadatu 8 o'clock ityukte
ashtavadanam
9 o'clock
navavadanam
samyak इदानीं श्रीवत्स महोदय 12 o'clock
द्वादशवादनं
3 o'clock
द्विवादनं त्रिवादनं
सम्यक् भारत महोदय 6 o'clock
षड्वादनं
7 o'clock
सप्तवादनं
सम्यक् रमणी भगिनी 8 o'clock अष्टवादनम् 11 o'clock
एकादशवादनम्
वीणा भगिनी 1 o'clock
एकवादनम्
4 o'clock
चतुर्वादनम्
राधा भगिनी 5 o'clock
पञ्चवादनम्
12 o'clock
द्वादशवादनम्
yes so this is the basic thing okay 1 to 12 o'clock what else do we have there we have 1:30 then we have 1:45 then we have 1:15 and so on so even in Sanskrit we have all that just try to learn that before that just quickly revision ityukte ekam abhyasam vartate so because किमस्ति अत्र राधा भगिनी भवती एव पठतु हेडिङ्ग्
किमस्ति संख्याम् अक्षरैः लिखतु
अक्षरैः लिखतु
उदाहरणं तु द्वे
अग्रिमे
एकम्
अग्रिमे करेक्ट्
वारि पञ्च
इदानीम् अग्रिमे रमणी भगिनी रमणी भगिनी नास्ति वा?
पञ्च पञ्च षट् षट् सप्त अष्ट नव दश.
सम्यक्. भरतमहोदय अग्रिमे.
एकादश द्वादश त्रिदश चतुर्दश पञ्चदश षट्दश सप्तदश अष्टदश नवदश विंशति विंशतिः.
ओके, जस्ट् वन् करेक्षन् भारतमहोदय, भवान् एव किमस्ति?
Can you repeat that?
सिक्स्टीन् इत्युक्ते भवान् किं पठितवान् आसीत्?
सिक्स्टीन् षड्
सिक्स्टीन् सिक्स्टीन् इत्युक्ते षोडश
षोडश
षोडश. सो दिस् इस् सम्थिङ्ग् डिफ्रेण्ट्. षोडश इति अस्ति. सम्यक्. Okay, so now let us come to first the basic thing. Atra Pashyat. So the outer ring, the outer ring, what does it indicate?
Minutes.
What do we see in minutes? Outer ring, panchadika, dashadika, something something, what is that sapad and all, I'll explain later on. But that outer ring is indicating minutes. And the inner ring, what does it indicate?
Hours.
Yes. So we have ekavadanam, dvivadanam and so on in a clockwise manner till up to dvadasha vadanam. Okay. Now, moment I have started from dvadasha vadanam and I'm reaching up to ekavadanam, what do I find outside? What is that written? पञ्च अधिक, राइट? पञ्च अधिक, दश अधिक, अनन्तरम् इन् बोल्ड् लेटर् देर् दे हव् रिटन् सपाद सपाद. आफ्टर् सपाद वी हव् विंशति अधिक, पञ्चविंशति अधिक, अनन्तरं लिखितमस्ति सार्ध, अनन्तरं जस्ट् इमेजिन् दि क्लाक् इस् मूविङ्ग्, पञ्च अधिक सार्ध. सो पञ्च अधिक सार्ध, अनन्तरं विंशति उन् पादोन इति लिखितमस्ति, अनन्तरं दशोन पञ्चोन. लेट् अस् ट्रै टु अण्डर्स्टाण्ड् आल् दिस्. फस्ट् आफ् आल् सपाद सार्ध पादोन, किं नाम सपाद? स पाद. सपादयोजनेन घटिज्ञानं कथं भवति? सपाद इत्युक्ते वन् क्वार्टर्, रैट्? सो 15 मिनिट्स्. सपाद करस्पाण्ड्स् टु 15 मिनिट्स्. पञ्च अधिक 5 मिनिट्स्, दशाधिक 10 मिनिट्स् एण्ड् क्वार्टर् ओवर् सपाद. स पाद, पाद इस् इक्वल् टु क्वार्टर्. After 15 minutes, 12 o'clock and then 15 minutes, that becomes sapada. Vyushati adhika. Vyushati adhika. Va, dasha adhika. All these are adhika, adhika, adhika. So, till 15, we say sapada. Again, vyushati adhika, pancha vyushati adhika. When it comes to 30 minutes adhika, half over, that becomes sardha. Again, sardha is 30 minutes. When 35 minutes are more, pancha adhika sardha. And then comes 20 pancha adhika is 35, then 40, and then takes 45. Now, that 45 minutes is also the quarter before, in terms of quarter repose, that is, padona. पाद उन नौ यु टेल् मी जस्ट् ट्रै टु अण्डर्स्टाण्ड् डिफ्रेन्स् बिट्वीन् टु वर्ड्स् स पाद ऐ टोल् यु पाद मीन्स् क्वाटर् स पाद पाद उन स पाद पाद उन वट् इस् द डिफ्रेन्स्
लेस् लेस्
Plus 15, yeah. minus 15.
Minus,
yeah. Yeah.
Going sir forward pada. And coming back forward.
Yeah. Yes. So, sa pada, itopi, saha pada, padena saha, we can have it. Padena saha, matlab, 15 minutes more. Pada una. Pada una. What is that? 15 minutes less. Pada una. Pada adhika una. पादोन राइट सो दीज आर द फोर पॉइंट्स वी हैव टू रिमेंबर सपाद सार्ध पादोन एकवादनम द्विवादनम एंड सो ऑन राइट नाउ द नेक्स्ट पार्ट ओके फर्स्ट आई शैल टेक द एक्सरसाइज बेस्ड ऑन दिस स्टेप बाय स्टेप वी विल गो
अगेन हां कैन यू गो बैक अगेन प्लीज
Yes, sure. From where can we repeat?
The same place where we were.
Padu. Yeah,
previous.
Sure, very sure.
Right there, yeah. Is it a vinsati or vinsatihi?
Okay. Atra vinsatihi is the number. So when we are going for a counting, ekam, dvi and all, there when that 20 comes we say vyushatihi
okay
but if I am saying vyushati adhika then tatra kim bhavati sandhi niyamaha antarbhutaha vyushati adhika becomes yana sandhi bhutva vyushatyadhika so okay. If I am saying 20 minutes over I mean, say some one ekavadanam anantaram 20 minutes over, then in that case, I have to say vimushatyadhika. Yana sandhi, ikarasya yabhutva, the word becomes vimushatyadhika. We can also say vimushati adhika, putting hyphen in between, indicating that there is sandhi. Even though there is sandhi, we are not doing it. We can have it vimushati dash adhika. But actually speaking, it becomes vimushatyadhika. But when you talk about number, the number is Vyushati.
Vyushatihi, yeah.
Okay.
Thank you.
Right. So once again, shall I go through the watch arrangement once again if you want?
No, this is fine.
I will repeat it once again for all. Yes?
Yeah, that would be great.
Yes, Bhagini, okay. That would be nice.
Yes, I'll repeat. Okay. So the outer circle is for minutes. Outer circle is for the outer ring or outer circle is for minutes. And then how these minutes are distributed? Just see, when the arm is moving from 12 to 1, it becomes 5 minutes more, 5 minutes over. And in that, in Sanskritam we say, pancha adhika, pancha hyphen adhika. At second place over here, actually it is 10 minutes more, 10 minutes over, more, over, adhika, dasha adhika. Then we can very well say pancha dasha adhika, but in language, proper language, we are using the term sapada. Pada. Pada is what? Pancha adhika, pancha adhika, pancha, it took 15 minutes more. That is, pada is quarter over. And then sa, when we are using sa, it becomes padena saha, sa pada, one quarter additional. Adhika. Pancha dasha, adhika. Sa pada. Anantaram, after 15 minutes, the next marking comes for 20 minutes, 20 minutes over, and that actually becomes Vyushati. 20 is Vyushati. So Vyushati Adhika. That becomes Vyushati Adhika, 20 minutes over. next line corresponds to after vimshati 25 minutes pancha vimshati adhika pancha vimshati adhika next line comes to sardha actually speaking it is 30 minutes adhika 30 adhika but 30 is what half sardha sa ardha ardha is half ardhena sah that is sardha half
one second bagini yeah one I have one small doubt after sapada when can you also say for vimshati adhika it is not pancha adhika sapad
yeah we can say very well
you can also say that
when,
okay
yeah it is absolutely correct but when we talk about language loke katham vadaniyam asti loke prachalitam kim asti tat vimshati adhika evam asti
astu bagini
technically there is nothing wrong when you say like that प्रचलित प्रकारेण कथं भवति विंशति अधिक ओके स्पष्टम् अस्ति आम् सार्ध हाफ् ओवर् 30 मिनिट्स् मो हाफ् हाफ् पास्ट् देट् इस् वौ वी से एण्ड् अगेन् द आर्म् इस् मूविङ्ग् फर्दर् द आर्म् इस् मूविङ्ग् फर्दर् एण्ड् कमिङ्ग् आन् 35 मिनिट्स् पञ्च अधिक पञ्च अधिक सार्ध सार्ध करस्पोण्ड्स् टु 30 मिनिट्स् सो पञ्च अधिक विल् बि 30 मिनिट्स् प्लस् 5 देट् इस् 35 मिनिट्स् पञ्च अधिक सार्ध स्टिल् वेन् इट् गोस् फर्दर् देर् कम्स् 20 मिनिट्स् विंशति बट् नौ देट् पञ्च अधिक 35 मिनिट्स् 35 मिनिट्स् एण्ड् देन् 40 मिनिट्स् we can very well say 40 minutes but the way how we express is un in the form of un un means what un means before dasha un 10 minutes before vimshati un 20 minutes before like that so when the arm comes over here at this place after 35 minutes instead of saying 40 minutes more, that is also the correct way of saying, we are saying 20 minutes before or 20 minutes less. Vyushati una. After Vyushati una, after clock, after the arm moves at next place, there it becomes Vyushati una and it finally becomes 15 minutes less. Vyushati so 30 then 35 minutes instead of 40 adhikam we are saying vimshati una and then it becomes 15 minutes less panchadasha nimisha panchadasha una iti asti but in local we say pad una quarter before pad corresponds to quarter quarter before pad una padona 15 minutes less again when we move further it becomes 10 minutes less dasha una 10 minutes before now 10 minutes before is also equivalent to what 30 35 40 45 50 minutes 10 minutes before is also same as 40 minutes over but by saying how do we say dasha una dasha una we will have this different combination different sort of exercises dasha una anantaram arm is moving further and then we are coming at the second last place that is 5 minutes before 5 minutes before that is pancha una panchona 5 minutes before Now, panchona is also corresponds to what? 55 minutes. 30, 35, 40, 45, 50, 55. Panchona is also corresponding to 55 minutes more. But by saying, we say panchona. Right? So, important part here is to remember adhika una. Adhika una. Sapada sardha padona. Sapada sardha padona. For example, if I am saying, just look into the watch, 7:40. Now 7:40 atra saptavadanam tu asti eva. 7:40 saptavadanam. Anantaram, how many minutes more? 7:40 ityukte? Yes?
Vimshati una.
Vimshati una. And how many adhika?
Chatvarimshat.
So either we can say vimshati una. Vimshati una yadi bhavetche. Tatra kiti kati vadanam?
Ashtavadanam.
But in simple language to understand, how do we say chatvarimshat adhika saptavadanam, which is same as vimshati una ashtavadanam. Correct? Chatvarimshat adhika saptavadanam is same as vimshati una ashtavadanam. Okay, so this is the basic thing. Adhika means over, vimshati adhika means 20 minutes more. Now ek question before that, let me show you basic atra sapada sardha padona visheshe adhyanam. Shivacha Mohdaya.
Aam bhagini.
Krupaya pathati va.
Samayaha dhyane tu patatu.
Dhyane na
first one. Dhyane na patatu. First one, ekavadanam. Second one, sapadauka vadanam.
Ekanusha. Atra kim asti shabda? Sapada ekavadanam. A. Akara. Anantaram A asti. Akara asti, anantaram A asti. Tatra vruddhi sandhi bhutva sapadaika vadanam. Iti bhavati. Ai bhavati.
Okay, sapadaika vadanam.
Yes, very correct. Anantaram?
Sardhaika vadanam.
Sardha ekavadanam.
Ekavadanam. Sardhaika vadanam. Okay.
Anantaram?
Padona dvivadanam. Padona dvivadanam.
Pada una dvivadanam.
Pada una dvivadanam.
Idanim bhavan? Vaktum icchati va? Astu. Idanim bhavan vadatu. If I am saying padona dvivadanam, in adhika form, how do we say?
Pancha chatvarimshat ekavadanam.
Pancha chatvarimshat vimshat adhika ekavadanam.
Adhika ekavadanam.
So, see, if we can't join the words now, sometimes we might forget Sandhi Niyama and all. In that case, at our level, we can just put a hyphen. For example, atra sapada ekavadanam asti. Sapadaika vadanam. Yadi vayam vaktum na shaknumah, tat sapada hyphen ekavadanam. Okay, and while in a spoken language also, sapada ekavadanam. Just take pause. Sapada ekavadanam. Kaha samayah? Sapada ekavadanam. If we can say sapada ekavadanam, that is wonderful. No check, sapada ekavadanam. Kaha samayah? Sardha ekavadanam. Sardha ekavadanam. Kaha samayah? Padona dvivadanam. Pada una dvivadanam. Right? Chintayatu idanim Ramni Bhagini. Ramni Bhagini astiva?
Amagini.
चिन्तयतु तत्र द्विवादनम् इति दर्शितमस्ति. इदानीं सपादसार्धपादो न वदतु.
सपादः
प्रभात त्रिवादनम् द्वि इट् इस् टु ओ क्लाक् सो इन् द फस्ट् फिगर् वेर् दे आर् मेन्शन् एकवादं तत्र टु इति अस्ति टु ओ क्लाक् तत् कथं वक्तुं शक्नोति
द्विवादनं सपादद्विवादनं
सम्यक्
सार्धत्रिवादनं पादोन त्रिवादनं
बहु सम्यक् पादोन त्रिवादनं सम्यक् वीणा भगिनी
हा भगिनि
तत्र थ्री ओ क्लाक् इति अस्ति इदानीं वदतु फोर् सपाद सार्धपादोन
त्रिवादनं सपादै
सपाद त्रिवादन
सपाद त्रिवादनं सार्ध त्रिवादनं पादोन त्रिवादनं
पादोन
त्रिवादनं
पादोन त्रिवादनं वा
पादोन चतुर्वादनं
पादोन चतुर्वादनम् अवगतं स्पष्टमस्ति किल
भगिनी
सो दिस् इट् रूट् इस् नौ द नेक्स्ट् वन् राधा भगिनी
आं भगिनि
अत्र फोर् ओ क्लाक् इति अस्ति वदतु
चतुर्वादनं सपादचतुर्वादनं सार्धचतुर्वादनं पादोनपञ्चवादनं
बहु सम्यक् जयन्ती भगिनी
आं मेन्
for you it is 12 o'clock vadatu
okay dwadasha vadanam sapada dwadasha vadanam sarda dwadasha vadanam padona ekavadanam
padona ekavadanam evam very nice ambika pati mahodaya astima
am
It's 6 o'clock for you.
Shadvadanam. Padona Shadvadanam. Sardha Shadvadanam. Padona Saptavadanam.
Bharat Modaya Sammek. Sammek Modaya. Bharat Modaya 8 o'clock for you.
Ashtavadanam. Sapada Ashtavadanam. Sardha अष्टवादनं पादोन नववादनं
बहु सम्यक् बहु सम्यक् महोदय श्रीवत्स महोदय
आं भगिनि
10 o'clock
दशवादनं सपाददशवादनं सार्धदशवादनं पादोन एकादशवादनं
बहु सम्यक् बहु सम्यक् सो नौ वी हाव् सम् एक्सर्सैजेस् आल्सो before we go for that let us have something about spoken Sanskrit part now what I'm going to add vadatu
I have two short questions before you move away one is that for the hour hand or the minute hand what is the word for hand there
actually for hand it is दण्ड इति अस्ति
दण्ड
सो सी गुड् क्वशन् एक्चुलि घटिः वा घटिका इत्युक्ते वाच् तत्र किं दृश्यते चित्रे घटिः अस्ति वा घटिका अस्ति अनन्तरं विह होरादण्ड होरादण्डः अनन्तरं निमेषदण्डः निमेषदण्डः होरादण्डः निमेषदण्डः अनन्तरं फलं फलं दण्ड एवमस्ति निमेष फलं पूर्वम् आम् इत्युक्ते दण्ड सो दीस् आर् द आर्म्स् एण्ड् देन् अगेन् वित् देट् त्री मेन् वर्ड्स् क्वार्टर् पास् एण्ड् देन् हाफ् पास् एण्ड् क्वार्टर् टू सो सपाद सार्ध पादोन दीस् थिङ्ग्स् वाट् टु रिमेम्बर् उन इस् आल्वेस् रिमेम्बर् उन इस् लेस् पाद उन 15 मिनिट्स् लेस् पादोन सेम् वे सपाद कट पास् पादसहित 15 मिनिट्स् मोर् सार्ध स अर्ध अर्धेन सह इट् बिकम्स् 30 मिनिट्स् मोर् नौ इस् इट् ओके अनिता भगिनी
या दिस् इस् ओके दिस् इस् गुड् थेङ्क् यु
वदतु
The other part was, you might have said it, I think, in the last class. When we are counting, since the first numbers before five are gender specific, when you are counting, do you say eka or do you say ekam or do you say eka? So, I mean, was it pulling or is it just the plain shabda used or the pulling or the napunsakling? When somebody just count, yeah.
By counting. Okay, see, while counting, we always say ekam. This is the chart showing how the numbers have been counting. Likewise, when we say 1, 2, 3, 4, 5, 6, 7, 8, like that, in Sanskrit Bhashayam, ekam eva asti. I think somebody asked me about vimshatihi also. Tatra vimshatihi iti shabda. परन्तु तत्र एकादश द्वादश त्रयोदश एवं भवति त्रीणि एव भवति चत्वारि एव भवति पञ्च एव भवति न पञ्चः वा न सप्तः न अष्टः पञ्च षट् सप्त अष्ट नव हियर् वी आर् नाट् जेण्डर् स्पेसिफिक् वि आर् जस्ट् काउण्टिङ्ग् द नम्बर् Pashtamasti, Bhagini?
But when you are doing the hours, there you are attaching the shabda. Ekavadanam, Chaturavadanam. So there we attach the shabda and not the neuter gender.
No. Because that is 1 o'clock. We are specifying.
Mm-hmm. Yes, got it. Thank you.
Chaturavari and all. We are never saying like that. So there we are attaching.
Okay,
so vadanam, when we talk about vadanam, it becomes ekavadanam, na ekam vadanam. Are you following?
Okay. Yes, I did.
Yeah. That vadanam word. Nava vadanam, dasha vadanam, chatur vadanam, na chatvari vadanam.
Hmm. Yes, got it. Thank you.
Now, what I want to add to this, सम्भाषणस्य विषये अस्माकं दिनचर्या अस्ति वयं सर्वे प्रातः उत्तिष्ठामः अनन्तरं केचन जनाः भ्रमणाय गमिष्यन्ति एवम् अनन्तरं केचन जनाः प्रातराशं कुर्वन्ति प्रातराशम् इत्युक्ते वाट् इस् प्रातराशम्
पूजा
न ब्रेक्फास्ट् इति अस्ति प्रातराश ओके अनन्तरं केचन जनाः पूजां कुर्वन्ति पठनं कुर्वन्ति कार्यालयं गच्छन्ति सो देट् इस् अवर् दिनचर्या अवर् डेली टैम् टेबल् लेट् अस् कम्बैन् दिस् टैम् वित् अवर् डेली टैम् टेबल् हौ कदा उत्तिष्ठति कदा प्रातराशं करोति कदा शयनं करोति कदा भ्रमणाय गच्छति एवं सो एव्रिबडि हेस् टु जस्ट् से संथिङ्ग् अबौट् देयर् दिनचर्या आरम्भं करोति जयन्ती भगिनी भगिनी वदतु कति वादने उत्तिष्ठति भवती
अहं प्रातःकाले पञ्चवादने उत्तिष्ठामि दन्तधावनं करोमि सार्ध सारी सपादपञ्चवादनं
सपादपञ्चवादने
सपादपञ्चवादनपर्यन्तं नित्यानुष्ठानकर्माणि करोमि तदनन्तरं योगाभ्यासं सारि सपादपञ्चवादनतः षड्वादनपर्यन्तं योगाभ्यासं करोमि तदनन्तरं स्नानं करोमि अष्टवादनं पूजां करोमि नववादनम् आरभ्य मम गृहकार्यं करोमि
नववादनतः इदानीं टु हाव् बेटर् लेङ्ग्वेज् वी केन् स्टार्ट् सेयिङ्ग् नववादनतः दशवादनपर्यन्तं गृहकार्यं करोमि पाककार्यं करोमि लैक् देट् अनन्तरं किं करोति भवती
नववादनतः दशवादनपर्यन्तं गृहकार्यं करोमि तदनन्तरं मम वर्गः अस्ति सार्ध द्वादशवादनतः एकवादनपर्यन्तं मम श्रीमद्भागवत वर्गः चलति भगिनि
ओ बहु सम्यक् भवती पाठयति वा तत्र
आम् आम् मम सख्यः सन्ति अहं पाठयामि श्लोकं वदामि सर्वे शृण्वन्तः कथामपि अहं श्रावयामि
सर्वे शृण्वन्ति
सर्वे शृण्वन्ति
आं भगिनि अनन्तरं किं करोति भगिनि
अनन्तरं मध्याह्नम् अहं निद्रां न करोमि किमपि कार्यं करोमि सायङ्काले मम कालक्षेपवर्गः अस्ति कालक्षेपं शृणोमि पूजां ऐ मीन् षड्वादने दीपज्वलनं करोमि तदनन्तरं सप्तवादने भ्रमणं सप्तवादनतः अष्टवादनपर्यन्तं भ्रमणं करोमि अष्टवादनतः सार्ध अष्टवादनपर्यन्तं मम रात्रि अल्पाहारं कुर्मः सर्वे मिलित्वा गृह जनाः सर्वे मिलित्वा अल्पाहारं
परिवारे अस्माकं परिवारे सर्वसदस्याः मिलित्वा सर्वे
अल्पाहारं
कुर्मः
तदनन्तरं दशवादन सार्धदशवादनपर्यन्तम् अहं निद्रां करोमि
सार्धदशवादने बहु सम्यक् अनुशासिता अस्ति भवती बहु सम्यक् भोजनं कदा करोति भगिनी
भोजनम् एकवादनपर्यन्तम् एकवादनतः सार्ध एकवादन पर्यन्तं
ओके अनुकरणीयः अस्ति भवत्याः आचरणं भवत्याः आचरणम्
नियमेन चलति नियमेन चलति भगिनि
नियमेन प्रचलति बहु सम्यक् भगिनि
धन्यवादः भगिनि
ओके इदानीं सेल्वी भगिनी भवती वदति वा भवत्याः दिनक्रमम्
आं माता अयं प्रयत्नं करोमि अहं प्रातःकाले चतुर्वादने अहम् उत्तिष्ठामि
चतुर्वादने
चतुर्वादने अहम् उत्तिष्ठामि सपाद चतुर्वादने अहं स्नानं करोमि सार्ध चतुर्वादने अहं हरेकृष्णमहामन्त्रं ध्यानयामि
अनन्तरम्
अनन्तरं पादोन नव सार्ध नववादने अहं पूजां करोमि
किं करोति भगिनि सार्धनववादने
सार्धनववादने अहं पूजां करोमि
पूजां करोति
देन् एकादश सार्धवादने अहं श्रीमद्भागवतं शृणोमि.
ओ भवती अपि वाव्
देन् सार्ध द्वादशवादने अहं श्रीमद्भागवतं पठामि. देन् दशवादने अहं निद्रां करोमि.
दशवादने रात्रौ दशवादने
निद्रां करोमि. धन्यवादः.
अम्बिकापति महोदय भवान् वक्तुमिच्छति वा भवतः दिनचर्या?
प्रतिदिनं किं करोमि? अहं षड्वादने उत्तिष्ठामि. षड्वादनतः दन्तवादन स्नानं करोमि. अनन्तरं पूजां योगाभ्यासं च करोमि सार्धनववादनपर्यन्तम्. अनन्तरं अल्पाहारं खादामि. एकादशवादनतः एकवादनपर्यन्तं संस्कृतं पठामि. अनन्तरं भोजनं खादामि. अनन्तरं चरितुं गच्छामि. त्रिवादनतः सार्ध सार्ध चतुर्वादनपर्यन्तं किञ्चित् शृणोमि. यूट्यूब् मध्ये किञ्चित् संस्कृतकक्षामस्ति. अनन्तरं सार्धचतुर्वादनतः षड्वादनपर्यन्तं पुनः भगवद्गीता उपदेशं यूट्यूब् मध्ये शृणोमि.
बहु सम्यक्.
अनन्तरं पूजां करोमि सार्ध सप्तवादनपर्यन्तं. अनन्तरं खादितुं सम्पूर्णं शिशुः अस्ति, शिशुः सन्ति, आरम्भ संस्कृतपाठं पाठयामि.
ओ बहु सम्यक्. उत्तमम् उत्तमं महोदय. बहु सम्यक् बहु सम्यक्.
धन्यवादः
धन्यवादः. ओके नाउ द लास्ट् इफ् एनिबडि वाण्ट्स् टु से और् वी केन् प्रोसीड् फर्दर्. भारतमहोदय वा भरतमहोदय भवान् इच्छति वा? भारतमहोदय
आम्
वदति वा?
अहं प्रातःकाले सप्तवादने उत्तिष्ठामि.
hmm.
पञ्च अधिकं सप्तवादने जलं पिबामि. सार्ध सप्तवादने स्नानं करोमि. अष्टवादने अष्टवादने फूड को भोजन करोमि.
प्रातराशं करोति वा भवान्? अष्टवादने प्रातराशं करोमि. अनन्तरं
नववादने पठामि.
किं पठति भवान्?
Once in a, it's random, so how you say that? Sometime say Sanskrit, sometimes just browsing the news or something like that, and so how you say that one?
Kada kada.
Can you repeat that?
Kada kada, kada kada, aham. समाचारपत्रं पठामि.
समाचार
इत्युक्ते न्यूस्. समाचारपत्रं पठामि. कदा कदा दूरदर्शनं पश्यामि. कदा कदा अन्तर्जाले, इत्युक्ते इण्टर्नेट्, अन्तर्जाले शोधनकार्यं करोमि. जस्ट् सर्चिङ्ग् आन् एन् इण्टर्नेट् आफ् युर् ओन् इण्ट्रेस्ट् रिगार्डिङ्ग् संस्कृत वा एनी अदर् टापिक्. So, antarjale shodhanam karomi, like that. Simple words you have to use. Agrime, vadatu?
Madhya kale bhojanam karomi.
Madhyane,
okay.
See, how beautifully these words are formed. अन्न इत्युक्ते डे, दिन हिन्दीभाषायां. तत्र मध्य इति अस्ति, दट् माध्यान्न. सन् इस् आन् द टाप्, सो माध्याह्ने भोजनं करोमि. अनन्तरं वामकुक्षिं करोति वा?
वामकुक्षि I'm sorry.
Vamakukshi ityukte kim?
Ek vadana.
Anybody knows Vamakukshi? Yes? Vamakukshi ityukte kim? Anybody knows?
Vam kim vadi punarapi ekavaram vadatu bin.
That is power nap which we take. Afternoon, that is Vamakukshi. The word is Vamakukshi. Okay, so after Bhojanam, Janaha kim kurvanti? Echana Janaha, Vamakukshim svi kurvanti. Okay, vadatu, agrime vadatu, vadatu. Anantaram?
वामपक्षे
वामकुक्षि कुक्षि
वामकुक्षि.
सो दट् इस् वाट् इस् दट् वाम? वी हव् टु स्लीप् आन् द लेफ्ट् हेण्ड् सैड्, टर्निङ्ग् आन् द लेफ्ट् हेण्ड् सैड्, दट् इस् वाम. वी आर् सपोज् टु स्लीप् वेन् एवर् वी टेक् पवर् नेप्. It is Shastrasi, Shastrarthi Kim Dattamasti. We have to turn on the left-hand side and take a power nap. And that's why the word Vamakukshi. ओके अग्रिमे वदतु
चतुर्वादने क्रीडामि
ओ बहु सम्यक्
हव् यु सेड् ग्राण्ड् किड्स्
ग्राण्ड् किड्स् न मम प्रपौत्र प्रपौत्र पुत्र प्रपौत्र
ओके सप्तवादने भोजनं करोमि
सप्तवादने भोजनम् इत्युक्ते अस्माकं कक्षा समाप्ता भवति सप्तवादने अनन्तरम् इमिजियेट्लि भवतः भोजनस्य समयः भवति बहु सम्यक् अनन्तरं
सार्ध अष्टवादने प्रार्थनां करोमि
बहु सम्यक् बहु सम्यक् अनन्तरं निद्रां कदा करोति
कम्प्यूटर् को के कृते
सङ्गणकः
सङ्गणकः राट् नववादने सङ्गणकर दृश्यति
पश्यामि
पश्यामि ओके
पश्यामि
एकादशवादने
निद्रां करोमि निद्रां
करोमि निद्रां करोमि
सर्वेषां दिनचर्या बहु सम्यक् अस्ति उत्तमप्रकारेण सर्वे समयं यापयति बहु सम्यक् अतः कः अपि न उक्तवान् अहं वाट्साप् उपरि टैम् पास् करोमि इति कः अपि न उक्तवान् ऐ एम् सो हेपी वेरी नैस् वेरी नैस् ओके सो नौ लेट् अस् कम् बेक् टु अवर् स्टडि आफ्टर् अवर् दिनचर्या again few questions we'll just revise what is that first of all what we have to remember we have to remember hora palani nimeshah pratah madhyanah sayam ratri anantaram sapada iti asti sardha iti asti una asti now I'm not showing you the screen you just try to recall just try to remember the pictures in your mind sardha una sapada sapada ityukte kim actually sapada ityukte panchadasha palani adikani and 15 minutes more that is sapada panchadasha palani adikani so if I am saying sapada dwadasha vadanam ityukte kim radha bagini
215
द्वादशवादनम्
द्वादशवादनं सोरि
12:15 सपादैकवादनम् इत्युक्ते
सपादैक
सपादैकवादनम् इत्युक्ते
15
सम्यक् सपाद इस् 15 मिनिट्स् मोर् तथैव सार्ध इत्युक्ते सार्धयोजनायेन किं भवति
30 minutes, half an hour.
Okay, so katham vayam vadamah, purva vadanam iti padam tu asti. For example, if I am saying sardha ekadasha vadanam, tat vadanam tatayva asti, tatayva anantaram sankhyam svikrutya, tat agre sardha yojanena, sardha ekadasha vadanam, va sardha dvadasha vadanam. Here, what I told you, we can say sardha ekavadanam api va akara ekara sandhiniyamanusarena sardhaika vadanam. But if we are not making sindhi, then just put hyphen.
sardha ekavadana. Or if you can remember, it is well and good, say sardha ekavadanam. Okay, so that is about sardha. One more point, that is una. Una ityukte, una ityukte, something less than that, right? So if I am saying padona, it is padona, that is padona panchadasha nimishani nyuna. If I am saying 11:45, it becomes padona dvadasha vadanam. If I am saying 12:45, say, then it becomes padona dash ekavadanam ityukte padona ekavadanam. Samyak asti? Okay, sarvesham avagatam arsti kopi sandeha asti krupaya pruchitu. Is it clear to you up till now? Yes or no? So now just few short questions. Now this is very much clear. Una padam yat asti tat nyunam darshayati, adhika padam adhikyaya vayam upayojayamah. Idanim aham vadami, quickly answeram dadatu. Anybody can answer, anybody can unmute and give me the answer. 11:55. Pancha una dvadasha madanam. Pancha una, we can make it as panchona dvadasha madanam, or put hyphen and pancha una dvadasha madanam. Okay. Now, 10:55.
Pancha una ekadasha madanam.
Pancha una ekadasha madanam. Pancha una. So it becomes pancha. Pancho. Pancho naika dashavadanam. Evam khalu. Pancha una vipanchi. Anantaram vruddhi sandhi bhavati ai bhavati. Pancho naika dashavadanam. Evam bhavati. Pancha. Or simply we can say pancha una ekadasha vadanam. Okay, then
7:55.
Pancho una ashtavadanam. Panchona ashtavadanam. Correct. Katamasti pancha dash una becomes panchona. Anantaramasti ashtavadanam. Panchona ashta panchona ashtavadanam. Okay. Panchonashtavadanam. 7:55 katham bhavati?
Panchonashtavadanam?
Ashtavadanam. Pancha una ashtavadanam. Right. Now you have to tell me the time. Last question. Sapadashadvadanam?
6:15.
Arthikavadanam? Sardhaikavadanam?
130.
Bahu samyak. Pancha triushad adhika ekavadanam.
135.
Pancha triushad adhika ekavadanam. 135. अत्र किं भवति पञ्चत्रिंशत् अधिक तकारस्य द भूत्वा पञ्चत्रिंशदधिकैकवादनम् एवं भवति. और सिम्प्लि वी केन् से पञ्चत्रिंशत् अधिक एकवादनम्. नौ सप्ताधिक अष्टवादनम्. Adhika Ashtavadana. I just ask you like that.
8 or 7.
Sapta Adhika Ashtavadana. What is it?
8-7.
8-7. Eka Dashadika Navavadanam.
9-11.
Bahu samay. So this is how. Okay, now the last one. Please, last one. I want this figure to tell in both the forms. It took the I'm saying the word you can tell me in adhika form as well as in una form just try please try
113
or trayodasha adhika ekavadanam very simple and then una form
द्वादशवादनम्
पुनः एकवारं वदतु
द्विवादनं
पुनः एकवारं
त्रिचत्वारिंशत् ऊण द्विवादनम्
अत्र 13 इति अस्ति 113 इति अस्ति
113
यस्
47 किल ऐ मीन् सप्तचत्वारिंशत् ऊण द्विवादनं
द्विपल् ऊण सपाद एकवादनम्
बट् एक्चुलि because we usually prefer trayodashadhika ekavadanam is very easy to say na instead of rotating the clock
yeah
rotating the arm to that side and then putting 60 minus 13 and making 47 we don't say I just ask you like that okay bahu samichinam asti bahu samichinam asti sarvesham krupe dhanyavadah arpayami punar milamah
dhanyavad shanti dhanyavad
bhagini I had a question
Yes, yes, vadatu, vadatu.
Are we going to learn the Sandhi and Samasa?
Actually, I'll be very glad to take it. But as far as spoken Sanskrit syllabus is concerned, we have different levels. Level 1, level 2, level 3 and so on. So as per level 1, we are following. I think in level 1, Sandhi Samasa is not included.
Okay, Bhagini. Okay.
Okay. Right. So I'll be very glad to have it with you. Let us see. If God wishes. Okay.
Okay.
But I don't think in this level particularly. I will ask Mohde about it.
Yeah, because this small, when we are learning, I think it's better we know the Sandhi.
Correct. And that is an
at least the basic ones. Yeah, at least the basic ones, I think it is. Yeah.
Yes, Guna Sandhi, Vriddhi Sandhi, the basic ones, even Iko Yanichi, Yana Sandhi is also very important. I'll ask the Rukma, definitely.
Okay.
Prashtumichati ba?
Yeah, I have a short question. You said it in the class, but I missed it. In the afternoon, 2 o'clock to 5 o'clock, let us say. Madhyahne dvivadana taha panchavadana
paryantam.
Is that correct?
Very correct. Very correct.
Okay. Thank you. Yeah.
Okay. Ambikapati Mohde Shanti Mantram Vadati va?
Punavadam Mohde?
Shanti Mantram Vayam Samapayama. Shanti Mantram.
पूर्णमधः पूर्णमिदं पूर्णात् पूर्णं दच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओं तत्सत् श्रीगुरुभ्यो नमः हरिः ओम्
धन्यवादः
धन्यवादः भगिनी